अन्यदा प्रभावती गमनाय शुकं पप्रच्छ। शुकः प्र आह कृष उदरि व्रज अद्य त्वं यदि जानासि भाषितुं जारसंयुक्तया ऊर्वं यथा देविकया कृतम्। अस्ति कुहाड आख्यः महाग्रामः, तत्र जरस आख्यः कौटुम्बिकः महामूर्खः। तद् भार्या देविका पुंश्चली, ताम् च प्रभाकरः ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमते। ईदृशम् व्यतिकरम् जनात् श्रुत्वा तत्पतिः तत्र अवलोकनाय स्वयं गतः। तेन च वृक्ष आरूढेन तत् तथा एव दृष्टम्। दृष्ट्वा तत्रस्थेन अपि जल्पितम्। धूर्तिके बहुदिनेभ्यः अद्य सम्प्राप्ता इति उक्ता कथम् इयम् भर्तारम् प्रत्याययतु। तया उक्तम् न अहम् जाने, त्वम् एव कथय। यदि न यासि तदा कथयामि। तया तथा इति प्रतिपन्ने शुकः प्र आह। सा च तद् वचः श्रुत्वा तम् जारम् प्रेषयामास। पत्या च अवतीर्य सम् आगतेन उपलब्धा। सा आह हे प्रभो, ईदृशः एव वृक्षः अत्र आरूढैः मिथुनम् दृश्यते। तेन पतिना उक्तम् त्वम् आरुह्य अवलोकय। तया तथा कृतम्। वृक्ष आरूढया च तया प्र उक्तम् कपटेन बहुदिवसेभ्यः अन्याम् नारीम् अभिगमन् दृष्टः असि। तेन मूर्खेण ज्ञातम् सत्यम् इदम्। सः च ताम् शान्तयित्वा गृहम् निनाय। इति कथाम् श्रुत्वा प्रभावती सुत्ता।